एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नेकपा एमाले दलेन अस्यैव मार्गशीर्ष मासस्य सप्तविंशात् दिवसात् एकोनत्रिंशं दिवसं यावत् काष्ठमण्डपे आयोक्ष्यमाणस्य एकादशतमस्य राष्ट्रिय महाधिवेशनस्य कृते ह्यः प्रतिनिधयः प्रचिताः वर्तन्ते। देशस्य अधिकेष् स्थानेष् सर्वसम्मतरूपेण प्रतिनिधयः प्रचिताः सन्ति चेत् कतिपयेष् स्थानेष् मतदान प्रक्रियया प्रतिनिधयः प्रचिताः वर्तन्ते। दलस्य आसन्न षड्लक्षेष् सप्तषष्टि सहस्रेष् षट्शते त्रिंशति च सदस्येष् शतद्वयाधिक सहस्रद्वयस्य प्रतिनिधिनां चयनस्य कृते नेतृभिः प्रतिनिधिभिश्च प्रतिनिधयः प्रचिताः वर्तन्ते। अस्मिन् महाधिवेशनस्य कृते प्रत्येकं संघीय निर्वाचन क्षेत्रात् न्यूनातिन्यूनम् एकस्य यूनः स्थानं सुनिश्चितं विहितमस्ति। प्रदेश समितेः पञ्चचत्वारिंशत् प्रतिनिधिसभा निर्वाचन क्षेत्रतः आसन्न एकसहस्राणि, विशेष जनपद समितेः सप्तचत्वारिंशत्, दलित समुदायस्य पक्षतः एकाशीति, ट्रेड यूनियन संस्थातः चत्वारिंशत् च प्रतिनिधयः प्रचिताः वर्तन्ते। दलस्य विधानस्य अनुसारेण महाधिवेशने आयोजक केन्द्रीय समितेः चतुःपञ्चाशदुत्तर त्रिशतं संख्याताः प्रतिनिधयः भविष्यन्ति। एवमेव केन्द्रीयानुशासन आयोगात् एकोनत्रिंशत्, लेखायोगात् त्रिंशत्, निर्वाचन आयोगात् पञ्चविंशतिः, परामर्शदात्री परिषदः पञ्चविंशति, प्रतिनिधयश्चेति आहत्य चतुष्षष्ट्युत्तर चतुःशतं प्रतिनिधयः भविष्यन्ति। प्रधानमन्त्रिणा सुशीला कार्किणा ह्य राप्रपा दलस्य नेतृभिः सह विमृष्टम् वर्तते। प्रधानमन्त्रिणः नैज सचिवालयस्य अनुसारेण बालवाटार स्थानं प्राप्तैः राप्रपा दलस्य प्रतिनिधिमण्डलस्य सदस्यैः सह प्रधानमन्त्रिणा सामयिक राजनीतिक विषये विमृष्टम् वर्तते। विमर्शने राप्रपा दलस्य अध्यक्षेण राजेन्द्र लिङ्गदेन इत्यनेन सहितः शीर्षस्थ नेतारः सहभागिनः आसन्। निर्वाचनेन सह देशस्य वर्तमान समस्या समाधातुं सर्वकारेण प्रयतनीयमिति विमर्शने राप्रपा दलेन बलं दत्तमस्तीति राप्रपा दलस्य अध्यक्षः राजेन्द्र लिङ्गदेन असूचयत्। पोखरा मुगलिन मार्गयोः मध्ये अष्टत्रिंशत् किलोमीटर मितस्य मार्गस्य पोखरा जामुने मार्गखण्डे द्वादशस् एकादश सेतवः निर्मिताः वर्तन्ते। मार्गायोजना कार्यालयस्य अनुसारेण म्याग्देखोला नद्याम् कुम्लेखोला, ढाडेखोला, सन्धिखोला, मूलखोला, प्रथम फेदीखोला, द्वितीय फेदीखोला, रूदीखोला नद्याम्, हलेदीखोला, कालीखोला नद्याम्, कास्की जनपदस्य कोत्रेखोला नद्याम् च सेतवः निर्मिताः वर्तन्ते। अधुनावधि अस्य मार्गस्य 10.89% प्रतिशतम् भौतिकी प्रगतिः, 10.47% वित्तीय प्रगतिः सम्भूता अस्ति इति मार्गायोजनया ज्ञापितम् वर्तते। वर्तमानार्थिक वर्षस्य प्रथम चातुर्मासे षोडशसहस्रै षण्णवत्यधिक शतद्वयेन च पर्यटकै मनाङ जनपदस्य भ्रमणं विहितमस्ति। अन्नपूर्ण संरक्षण क्षेत्रायोजना संरक्षण कार्यालयस्य प्रमुखस्य झगबहादुर भुजेल इत्यस्य अनुसारेण अस्मिन् नवधौ सप्तोत्तरैकशत संख्यातानां देशानां नागरिकै मनाङ जनपदस्य भ्रमणं विहितमस्ति। नेकपा नाम्ना नेपाली कम्युनिष्ट दलेन एकतायाः ध्रुवीकरणस्य सहकार्यस्य च प्रक्रियायां सहभागिनो भवितुं सम्पूर्ण वामपन्थिनः, समाजवादिनः, लोकतन्त्रवादिनः, देशभक्ताश्च जनाः आहूताः वर्तन्ते। नेकपा दलेन ह्य विज्ञप्तिं प्रकाश्य विद्यमान राष्ट्रिय परिस्थितिम्, आवश्यकतां, जनापेक्षितांश दृष्टिगतां विधाय पुनर्संघटित नेकपा दलस्य नेतृत्वे प्रारब्धे ध्रुवीकरणस्य अभियाने समाहिताः भवितुं सर्वे जनाः आहूताः वर्तन्ते। श्रमजीवी वर्गाणां मुक्तिः वैचारिकम् अष्टम मार्क्सवादः लेनिनवादश्च वर्तेते इत्यतः दलस्य मार्गनिर्देशकः सिद्धान्तश्च एतौ एवास्ति इति चर्चयता नेकपा दलेन समुचित विचारः, राजनीतिक कार्यक्रमः, सर्वविधानुभवः, ऊर्जसः संकेन्द्रञ्च दलस्य एकतायाः सारोऽस्ति इति आह्वानपत्रे ज्ञापितम् वर्तते। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः उपवेशः श्ववस्ता एतत्पूर्वम् अद्यतन दिवसाय निर्धारितः उपवेशः श्वस्तन दिवसं यावत् सारितोऽस्ति इति नेपाली कांग्रेस दलस्य केन्द्रीय कार्यालयस्य मुख्य सचिवः कृष्ण प्रसाद पौडेलः सूचयति। संचार सूचना प्रविधि मन्त्रिणः जगदीश खरेलस्य समक्षं स्मार्ट दूरभाष पीडितैः जनैः दूरभाषस्य संयोजनोपकरण व्यवस्थापनस्य गृहभाटकादीनांश समस्यानां समाधानाय प्रयासं विधातुम् अनुरुद्धमस्ति। संचार मन्त्रिणा खरेलेन सह विहिते मेलने स्मार्ट दूरभाष पीडितैः जनैः संस्थानस्य निरस्तीकरणस्य वर्षत्रयस्य व्यतीते पश्चादपि संयोजन केन्द्रस्य व्यवस्थापनं सम्भूतं नास्ति, संयोजनोपकरणस्य स्थापनस्य स्थानस्य भाटकं प्राप्तं नास्ति, विद्युतः भाटकमपि प्रदत्तं नास्ति इति च उक्त्वा समस्यानां समाधानाय अनुकूल हस्तक्षेपं कर्तुं प्रयासाय मन्त्री अनुरुद्धो वर्तते। तदवसरे मन्त्री खरेलः कस्मै अपि अन्यायस्य निरोधनत्वेन नियामक निकायेन सह विषयेऽस्मिन् ज्ञात्वा समस्याया समाधानाय प्रयास करिष्यति इति समाश्वासयत्। पश्चात्तन समय रासायनिक मलेन भूमेः उत्पादन सामर्थ्यस्य न्यूनीकरणं सम्भूतमस्ति, तस्य प्रयोगेण मानवानां स्वास्थ्य प्रकृतौ च गभीरः प्रभावः उत्पन्नश्च वर्तते इति च कारणेन पर्सा जनपदस्य कृषकाः प्राङ्गारिक मलस्य गव्यस्य गोमयस्य वा प्रयोगं प्रति आकृष्टाः वर्तन्ते। रासायनिक मलस्य विस्थापनाय आत्मभि कृषे उत्पादनस्य सामर्थ्यस्य अभिवर्धनाय च आत्मभि प्राङ्गारिक मलस्य वाल्मीकिकृमेः उत्पादितस्य मलस्य च प्रयोगं कर्तुं प्रारब्धमस्तीति वीरगंज महानगरपालिकायाः एकत्रिंशत् ओडाक्षेत्रस्य युवा कृषकः रमाकान्त चौधरी असूचयत्। इलाम जनपदस्य इलाम नगरपालिकायाः नवम ओडा क्षेत्रवर्तिनि भञ्जाङ गोलाई स्थाने दुरापन्नायां यान दुर्घटनायां द्वौ जनौ मृतौ स्तः। झापा जनपदात् इलाम जनपदं प्रति प्रस्थीयमानस्य ट्रक यानस्य स्कूटर यानस्य च संघर्षणेन दुरापन्नायां दुर्घटनायां इलाम नगरपालिकायाः नवम ओडा क्षेत्रवर्तिनि गोलवस्ती स्थानस्य षड्विंशति वर्षीयः डेविड थापा मगरः, माई जोगमाई नगरपालिकायाः प्रथम ओडा क्षेत्रस्य अष्टादश वर्षीयः सेवाङ शेर्पा च मृतौ इति प्रहरिणा ज्ञापितम् वर्तते। एनपीएल नाम्न्या नेपाल प्रीमियर लीग इति क्रिकेट क्रीडा श्रृंखलायाः अन्तर्गतं पूर्वेद्युः सुदूरपश्चिम रोयल्स समूहेन जनकपुर बोल्ट्स क्रीडा समूह षण्णां क्रीडकाणाम् अन्तरेण पराजितो वर्तते। अनेन विजयेन सहैव सुदूरपश्चिम क्रीडा समूह अंकतालिकायां सर्वोच्च स्थाने प्राप्तोऽस्ति। ह्यः क्रीडितायां प्रथम क्रीडायां लुम्बिनी लायन्स इति क्रीडा समूहेन पोखरा एभेन्जर्स इति क्रीडा समूह त्रयाणां क्रीडकाणाम् अन्तरेण पराजितो वर्तते। इति समाचारः।